ओम नमो भगवते वासुदेवाय श्रीमद्भागवत महापुराणम दशमः स्कंधः उत्तरार्धः अथ पञ्चाशत्तमोऽध्यायः। श्रीशुक उवाच, अस्तिः प्राप्तिश्च कंसस्य महिष्यौ भरतर्षभ, मृते भर्तरि दुःखार्ते ईयतुः स्म पितुर्गृहान्। अस्तिः प्राप्तिश्च कंसस्य महिष्यौ भरतर्षभ, मृते भर्तरि दुःखार्ते ईयतुः स्म पितुर्गृहान्। पित्रे मगधराजाय जरासन्धाय दुःखिते, वेदयाञ्चक्रतुः सर्वमात्मवैधव्यकारणम्। सददप्रियमाकर्ण्य शोकामर्षयुतो नृप, अयादवीं महीं कर्तुं चक्रे परममुद्यमम्। अक्षौहिणीभिर्विंशत्या तिसृभिश्चापि संवृतः, यदुराजधानीं मथुरां न्यरुणत् सर्वतो दिशम्। निरीक्ष्य तद्बलं कृष्ण उद्वेलमिव सागरम्, स्वपुरं तेन संवृद्धं स्वजनं च भयाकुलम्। चिन्तयामास भगवान् हरिः कारणमानुषः, तद्देशकालानुगुणं स्वावतारप्रयोजनम्। हनिष्यामि बलं येतद्भुवि भारं समाहितं, मागधेन समानीतं वश्यानां सर्वभूभुजाम्। अक्षौहिणीभिः सङ्ख्यातं भटाश्वरथकुञ्जरैः, मागधस्तु न हन्तव्यो भूयः कर्ता बलोद्यमम्। एतदर्थोऽवतारोऽयं भूभारहरणाय मे, संरक्षणाय साधूनां कृतोऽन्येषां वधाय च, अन्योऽपि धर्मरक्षायै देहः सम्भ्रियते मया। विरामायाप्यधर्मस्य काले प्रभवतः क्वचित्, एवं ध्यायति गोविन्द आकाशात् सूर्यवर्चसौ। रथावुपस्थितौ सद्यः ससूतौ सपरिच्छदौ, आयुधानि च दिव्यानि पुराणानि यदृच्छया। दृष्ट्वा तानि ऋषिकेशः सङ्कर्षणमथाब्रवीत्, पश्यार्यव्यसनं प्राप्तं यदूनां त्वावतां प्रभो। एष ते रथ आयातो दैतान्यायुधानि च, यानमास्थाय जह्येतत् व्यसनात् स्वान् समुद्धर। एतदर्थं हि नौ जन्म साधूनामीश शर्मकृत्, त्रयोविंशत्यनीकाख्यं भूमेर्भारमपाकुरु। एवं सम्मन्त्र्य दाशार्हौ दंशितौ रथिनौ पुरात्, निर्जग्मतुः स्वायुधाढ्यौ बलेनाल्पीयसा वृतौ। शङ्खं दध्मौ विनिर्गत्य हरिर्दारुकसारथिः, ततोऽभूत् परसैन्यानां हृदि वित्रासवे पथुः। तावाहमागधो वीक्ष्य, हे कृष्ण पुरुषाधम, न त्वया योद्धुमिच्छामि बालेनैकेन लज्जया, गुप्तेन हि त्वया मन्दनयोत्स्ये याहि बन्धुहन्। तव राम यदि श्रद्धा युध्यस्व धैर्यमुद्वह, हित्वा वामच्छरैश्छिन्नं देहं स्वर्याहि मां जहि। श्रीभगवानुवाच, न वै शूरा विकथन्ते दर्शयन्त्येव पौरुषं, न गृहिणीमो वचो राजन्नातुरस्य मुमूर्षतः। श्रीशुक उवाच, जरासुतस्तावभिसृत्य माधवौ महाबलौघेन बलीयसा वृणोत्। स सैन्ययानध्वजवाजिसारथी सूर्यानलौ वायुरिवाभ्ररेणुभिः, सुपर्णतालध्वजचिह्नितौ रथावलक्षयन्त्यो हरिरामयोर्मृधे। स्त्रियः पुराट्टालकहर्म्यगोपुरं समाश्रिता सम्मुहुषु चार्दिताः। हरिपरानीकपयो मुचां मुहुः शिलीमुखात्युल्बणवर्षपीडितम्। स्वसैन्यमालोक्य सुरासुरार्चितं व्युस्फूर्जयच्छार्ङ्गशरासनोत्तमम्। गृह्णन् निषङ्गादससन्दधच्छरान् विकृष्य मुञ्चञ्छितबाणपूगान्, निघ्नन् रथान् कुञ्जरवाजिपत्तीन् निरन्तरं यद्वदलात् चक्रम्। निर्भिन्नकुम्भा करिणो निपेतुरनेकशोश्वा शरवृक्ष्णकन्धराः, रथाहताश्वध्वजसूतनायकाः पदातयश्छिन्नभुजोरुकन्धराः। सञ्छिद्यमानद्विपदे भवाजिनामङ्गप्रसूता शतसोऽसृगापगाः, भुजाहयः पूरुषशीर्षकच्छपाः तद्विपद्वीपहयग्रहाकुलाः। करोरुमीना नरकेशशैवला धनुस्तरङ्गायुधगुल्मसङ्कुलाः, अच्छूरिकावर्तभयानका महामणिप्रवेकाभरणाश्मसर्कराः। प्रवर्तिताभिरुभयावहा मृधे मनस्विनां हर्षकरी परस्परम्, विनिघ्नतारीन् मुसलेन दुर्मदान् सङ्कर्षणेनापरिमेय तेजसा। बलं तदंगार नवदुर्ग भैरवं दुरंत पारं मगधेन्द्र पालितं क्षयं प्रणीतं वसुदेव पुत्रयोर् विक्रीडितं तज्जगदीशयोः परम् स्थित्युद्भवान्तं भुवनत्रयस्य यः समीहते नन्त गुणः स्वलीलया न तस्य चित्रं परपक्ष निग्रहस्तथापि मर्त्यानुविधस्य वर्ण्यते जग्राह विरथं रामो जरासन्धं महाबलं हतानीकावशिष्टा सोम सिंह सिंहमिव उजसा बध्यमानं हतारातिं पाशैर्वारुणमानुषैः वारयामास गोविन्दस्तेन कार्यचिकीर्षया समुक्तो लोकनाथाभ्यां व्रीडितो वीरसम्मतः तपसे कृतसंकल्पो वारितः पथि राजभिः वाक्यैः पवित्रार्थपदैर्नयनैः प्राकृतैरपि स्वकर्मबन्धप्राप्तोऽयं यदुभिस्ते पराभवः हतेषु सर्वानीकेषु नृपो बारहद्रथस्तदा उपेक्षितो भगवता मगधान् दुर्मनाययौ मुकुन्दोऽप्यक्षतबलो निस्तीर्णारिबलार्णवः विकीर्यमाणः कुसुमैश्रितशैरनुमोदितः माथुरैरुपसङ्गम्य विज्वरैर्मुदितात्मभिः उपगीयमानविजयः सूतमागधवन्दिभिः शङ्खदुन्दुभयो नेदुर्भेरीतूर्याण्यनेकशः वीणावेणुमृदङ्गानि पुरं प्रविशति प्रभौ सिक्तमार्गां हृष्टजनां पताकाभिरलङ्कृतां निर्घुष्टां ब्रह्मघोषेण कौतुकाबद्धतोरणां निचीयमानो नारीभिर्माल्यदध्यक्षताङ्कुरैः निरीक्ष्यमाणः सस्नेहं प्रीत्युत्कलितलोचनैः आयोधनगतं वित्तमनन्तं वीरभूषणं यदुराजाय तत्सर्वमाहृतं प्रादिशत् प्रभुः एवं सप्तदश कृत्वस्तावत्यक्षौहिणीबलः युयुधे मागधो राजा यदुभिः कृष्णपालितैः अक्षिण्वंस्तद्बलं सर्वं वृष्णयः कृष्णतेजसा हतेषु स्वेष्वनीकेषु त्यक्तो यादरिभिर्नृपः अष्टादशमसङ्ग्रामे आगामिनि तदन्तरा नारदप्रेषितो वीरो यवनः प्रत्यदृश्यत रुरोधमथुरामेत्य तिसृभिर्म्लेच्छकोटिभिः नृलोके च प्रतिद्वन्द्वो वृष्णीन् श्रुत्वात्मसंमितान् तं दृष्ट्वा चिन्तयत् कृष्णः सङ्कर्षणसहायवान् अहो यदूनां वृजिनं प्राप्तं युभयतो महत् यवनोऽयं निरुन्धे स्मानद्य तावन्महाबलः मागधोऽप्यद्य वाश्वो वा परश्वो वा गमिष्यति आवयोर्युध्यतोरस्य यद्यागन्ता जरासुतः बन्धून् वधिष्यत्यथवा नेष्यते स्वपुरं बली तस्मादद्य विधास्यामो दुर्गं द्विपददुर्गमं तत्र ज्ञातीन् समाधाय यवनं घातयामहे इति सम्मन्त्र्य भगवान् दुर्गं द्वादशयोजनम् अन्तःसमुद्रे नगरं कृत्स्नाद्भुतमचीकरत् दृश्यते यत्र हित्वाष्ट्रं विज्ञानं शिल्पनैपुणं रथ्याचत्वरवीथीभिर्यथा वास्तु विनिर्मितं सुरद्रुमलतोद्यानविचित्रोपवनान्वितं हेमशृङ्गैर्दिविस्पृग्भिः स्फाटिकाट्टालगोपुरैः राजतारकुटैः कोष्ठैर्हेमकुम्भैरलङ्कृतैः रत्नकूटैर्गृहैर्हेमैर्महामरकतस्थलैः वास्तोष्पतीनां च गृहैर्वलभीभिश्च निर्मितं चातुर्वर्ण्यजनाकीर्णं यदुदेवगृहोल्लसत् सुधर्मां पारिजातं च महेन्द्रः प्राहिणोद्धरेः यत्र चावस्थितो मर्त्यो मर्त्यधर्मैर्न युज्यते श्यामैककर्णान् वरुणो हयान् शुक्लान् मनोजवान् अष्टौ निधिपतिः कोशान् लोकपालो निचोदयान् यद्यद्भगवता दत्तमाधिपत्यं स्वसिद्धये सर्वं प्रत्यर्पयामासुर्हरौ भूमिगते नृप तत्र योगप्रभावेण नीत्वा सर्वजनं हरिः प्रजापालेन रामेण कृष्णः समनुमन्त्रितः निर्जगामपुरद्वारात् पद्ममाली निरायुधः ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे दुर्गनिवेशनं नाम पञ्चाशत्तमोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणां भोजे रतिः स्यादनपायिनी।